अयम् पन्थानो वित्तः पुराणो यतो देवा उदजायन्त विश्वेः अतश्चिदाजनिभीष्टप्रवृद्धो मामातरममुजापत्रवेगः नाहमतो निराया दुर्गहैतन्तीरश्च नाः पाश्वान्निर्गमाणि बहूनि मे अग्रदा कर्त्वानि युद्धैत्वेन सन्त्वेन वृच्छै राजतीम् मातरमन्वचष्टननानुगान्यनुगमानि तष्टर्गृहे अभिभत्सोममिन्द्रस्य धन्यम् शम्भोः सुतस्य किम् सरधक्रणभज्यम् सहस्रम् मासो जभार शरदश्च पूर्वीः नहीन्वस्य प्रतिमानमस्य न तज्जाते श्रूतये जनित्वाः अवद्यमेव मन्यमाना गुहाः करिन्द्रम् माता वीर्येणाङ्गृष्टम् अथोदस्तात् सुजवत्कम्बसा न आरोदसी अपृणाज्जायमानः एता अर्षञ्चललाभवन्तीर्गावरीरिव सङ्क्रोशमानाः एता विपृच्छमिदम् भनन्तिकमापो अद्रिम् परिधिम् रुजन्ति किमुष्मितस्मै निविदा भनन्तेन्द्रस्य पद्यम् दीदृशम् तापाः मैतान् पुत्रो महता वधेन वृत्रम् च घन्वासृजद्विसिन्धून् ममच्छनत्वा युपतिः परा सममच्छनत्वा कुशवा जभार ममच्चिदा पश्युष मे ममृढ्यर्ममच्चिदिन्द्रः सहसोदतिष्ठत् ममच्चलते मघपन्यम् सो निविद्वापहनो जघान विद्धमुत्तरो बभूवाच्छिरो दासस्य सम्पीणग्वधेन दृष्टिः स सुभश्च वीरम् दभागमनाधृष्यम् ऋषभम् तुम् रवीन्द्रम् अरीलम् वत्सम् च रथाय माता स्वयम् गातुम् तन्वनिच्छमानम् उत माता महिषमन्वेन दधीत्वा जगति पुत्रदेवाः अथा ब्रवीद्वृत्रमिन्द्रोहनिष्यन् सखे विष्णोवितरम् विक्रामस्व कस्ते मातरम् विधवामदग्रचङ्गस्त्वामजिघाम् सश्चरम् तम् कस्ते देवो अधीमाद्दीगासीद्य प्राक्षीणा पितरम् पादगृह्य अवत्यासु न आन्त्राणि पेचेन देवेषु विविदेमर्धितारम् अवश्यम् जायामनहीयमानामधामे श्येनो मध्वाजभार एव भद्रम् नो अपि वातयमनाः ओ हरिः ओ त्वामिन्द्रवज्रन्नत्र विश्वे देवासः सुभवासभूमाः महामुभेरोदसी वृद्धमृष्णम् निरेकमिद्वृणते वृत्रहत्ये अवासृजन्तजिव्रयो न देवा भुवः सम्राणिन्द्रसत्ययोनिः अहन्नहिम् परिसया नवन्न प्रवर्तनीररतो विश्वधेनाः अदृक्नवन्तम् विजातमबुद्ध्यमबुध्यमानम् सुषुपानमिन्द्र सप्त प्रति प्रपद आसया नमहिम् वज्रेण विरीणा अपर्वन् अक्षोदयच्छव साक्षाम बुद्ध्यम् वार्णव दस्तवीषेभिरिन्द्राः दृढान्यौघ्नादुसमा नवोजो वाभिनत्ककुभः पर्वतानाम् अभिप्रदर्दुर्जनायो न गर्भम् रसायिव प्रजायुः साकमद्रायः अदर्पयो विसृतभुब्जभूर्णीन्द्वम् वृताङ्कारिणा इन्द्रसिन्धून् त्वम् महीमवनिम् विश्वधेनाम् दुर्वीताये वैयायक्षरन्ति अरमयो नमसे जतन्नस्तुतरणा अग्रणोरिन्द्रसिन्धून् प्राग्रवो नभन्वो ओनमग्वाद्भस्राबिन्वद्युपदेर्दज्ञाः धन्वान्यज्राङ्गपृणत्रिषाणाम् अधोगिन्द्रस्तर्यो ओदम् सोपत्नीः पूर्वेरुषः सरदश्च गोत्ता वृत्रम् जघन्वाङ्गसृजद्विसिन्धून् परिष्ठिता अतृणद्बद्भधानाः शीरा इन्द्रस्व वीतवे पृथिव्या अम्रेभिः पुत्रमग्रवो अधानम् निवेशनाद्धरिभाजभर्ता या अन्धो अख्यदहीमादधानो निर्भो दुःखचित् समरम् तपर्व प्रदे पूर्वाः निकरणानि विप्ला विद्वाह विदुषेकरांसि यथा यथा वृष्ण्याः निःस्वगोत्तापांसि राजन्नर्यावीवेषीः नो श्रुतयम् रणोग्रेणानयिषम् चरित्रे नद्यो ओनवीवेः हरिभो ब्रह्मणव्यम् धिया स्याः मरथ्यस्व दासाः आन इन्द्रो दूराधान आसादभिष्णिकृतमसेयासदुग्रह भोजिष्ठेभिर्नृपतिर्वज्रबाहुः सङ्गे समत्सु दुर्वणिः प्रतन्यून् आन इन्द्रो हरिभिर्या त्वच्छार्वाचीनो वसे राधसे च तिष्ठादिवज्रीमघवाभिरप्सीमम् यज्ञमनू नो वाजसातौ इमम् यज्ञम् त्वमस्माकमिन्द्रपुरो दधत्सनिष्यसि कृतम् नः स्वग्नीव वज्रेण सलयेधनानाम् त्वया वयमर्यहाजिम् जयेम उषन्नुषणः सुमनावुपाके सोमस्य नुसुषूतस्य स्वधावः वायिन्द्रप्रतिभृतस्य मध्वस्व मन्दसाममदः पृष्ट्येन ऋषिभिर्नवेभिर्वृक्षो न भक्वसृण्यो न येताः मर्यो न योषामभिमन्यमानोच्छाः विवग्निपुरुहोतमिन्द्रम् गिरिर्नयस्वरावाष्वेन्द्रः सदा देवसहसे जातमुग्रः आदर्दावज्रम् स्थवीरम् न भीमपुत्रे मको सम्वसूनान्दृष्टम् यस्य वर्ता जनुषान्वस्तिलराधसामरीतामघस्य उद्वारुढानस्तविषेव उग्रास्मभ्यम् दद्धि पुरुहूतरायः ईक्षे राजः क्षयस्य दर्शनीनामुदृजनामवर्तासितो नाम् शिक्षानरः स मिथेषु प्रहापान्वस्वो राशिमभिनेतासि भूरिम् या तच्छृण्वे सच्चा सचष्टो जयाः गृणोति मुहुकाति धृष्वः गुरुदासुभेऽपि च जिष्ठो अम्भोधाः दधाति द्रवीणम् चरित्रे मानो मर्धीराभरा दद्धिरन्नः प्रदासुषे दातवे भूरियत्तेः नव्येः देष्णे स्वस्ते अस्मिन्त मुख्ये प्रभ्रवाम भयमिन्द्रस्तुवन्ताः नो श्रुतयिन्द्रनो गृणानयिषम् चरित्रे नद्यो ओ नपीपेः अकारिते हरिवो ब्रह्मणव्यम् धिया स्याः मरत्यः स दासाः आयात्मिन्द्रोपसमुपानयिहस्तुतस्य धमातस्तु सूराः वावृधानस्तवीषीर्यस्य पूर्वेर्गौर्नक्षत्रमभिभूतिपुष्यात् तस्य दिहस्तवधवृष्ण्यानि तु विद्युम्नश्च विराधसो नृन् यस्य क्रतुर्विदच्छो ्राक्षात्मान्तरुत्रो अभ्यस्ति कृष्टीः आयात्मिन्द्रो दिवा पृथिव्या भक्षुसमुद्रादुतभापुरीषात् स स्वर्णराधवासेनो मरुत्वान्परापतोः वासदानाधृतस्य सूरस्य राजो बृहतो जयीषे तमुष्टवामविदधेष्विन्द्रम् यो वायुना जयति गोमादेषु प्रधृष्णुयानजदिवस्यो अच्छ उभयो नमो नमसिस्तभाजन्नियत्तिवाजम् जनजन्निदध्यै किञ्जदानः पूर्वमारा मुक्थैरेन्द्रम् कृण्वेत सदानेषु होताः धिषा यदि धिषण्यन्तः शरण्यान् सदनम् को अद्रिमौ सिजस्य गोहे आदुरोढास्त्यस्य होता यो नो महान् संवरणेषु वह्निः शत्रायतीम् भार्भरस्य वृष्णस्य शक्तिसुष्मस्तु पते भराय गुहायती मौसिजस्य गोहे प्रयद्धिये प्रायसे मदाय वियद्वराहम् शिवर्वदस्य वृन्दे वयोभिर्जिन्वे अवाम् जवांसि वियद्गौरस्य गभयस्य गोहे यदीवाजाय शुद्ध्यो भद्रादेहस्ता सुकृतोदपाणी प्रयन्तारास्तु पते राध इन्द्र कादेनिषत्यज्ञमुनो मत्सि किन्नो दुहर्षसेदा तवावु एवावस्वइन्द्रः सत्यः सम्राढ्यन्ताः भृत्रम् वरीवः पूरमेकः पुरुष्टुतक्रत्वा नः सद्धिराजो भक्षीयदेव सोदीर्यस्य नोष्टुत इन्द्रनो गृणानयिषम् जरित्रे नद्यो ओनपीपेः अपराधिते हरिभो ब्रह्मणव्यम् धिया स्याः मरथ्यः स दासाः यन्न इन्द्रो जुजुषे यच्च वष्टितन्नो महान् करति सुष्म्याचीत् ब्रह्मस्तोमम् मघवासोम मुक्थायो अस्माहानम् समसा बिभ्रदेति ऋषावृषम् झिम् चतुरश्रिमस्यम् उग्रो बाहुभ्याम् नृतमस्वजीवान् श्रिये परुष्णे मुषमानपूर्णाम् यस्याः पर्वाणि सख्याय विद्मे यो देवो देवतमोजायमानो महोवाजेभिर्महद्भिश्च सुष्मैः तथा नो वज्रम् बाह्वोरुसन्तम् यामनेन रेजयत्प्रभूम विश्वारोधांसि प्रपतश्च पूर्वेद्यौर्विश्वाजनीमन्रेज रक्षाः मातराभरति सुष्म्यागोर्नृवत्परिज्वन्नोऽनुबन्तवादाः तादूत इन्द्रमहतो महानि विश्वेष्वित्सवर्णेषु प्रवाच्याः यच्छूरधृष्णो धृषदात धृष्ट्वा न हिंवज्रेण सभसा विवेशीः तादूते सत्यातो विन्वम् न विश्वाप्रधेनवस्य स्रते वृष्णवूध्नाः अथाहद्रेण मनोऽभिजाना प्रसिन्ध भोजवसा चक्रमन्त अत्राह ते हरिवस्ताभु देवीरवोभिरिन्द्रस्तवन्तः स्वसारः यच्छेमनुप्रमजो बद्बधाना दीर्घामनुप्रसीदम् चन्दयध्यै विपीले अहम् सर्वध्यो न सिन्धुरात्वा समीसमानस्य शक्तिः अस्मद्रक्षुसुजानस्य यम्या आसुन्नरस्मिन् दुव्योज सङ्गोः अस्मे वरिष्ठाग्रनिहि ज्येष्ठा गृह्णानि सत्रा सहुरे सहांसि अस्मभ्यम् वृत्रा सुवनाः निरन्ति जयवधर्वर्षो मत्यस्य अस्माकमित्सुनिहि त्वमिन्द्रास्मभ्यम् चित्राङ्गुपमाहि वाजान् अस्मभ्यम् विश्वायुषणः पुरम् धीरमागम् सुमाघवन्बोधि गोदाः नोष्टुत इन्द्रणो गृणानयिषम् चरित्रे नद्यो नीपेः अकारिते हरिवो ब्रह्मणव्यम् धिया स्यामरथ्यस्वदासाः तथा महामृधक्कस्य होदर्जज्ञम् जुषाणो अभिसो ममूधाः तिबन्नु सानो जुषमानो अन्धो वभक्षरश्वस्सु जते धनाय को अस्य वीरस्य धमादमापसमानम् ससुमतिभिः को अस्य तदस्य चित्रम् चेकितेकदूते मृधे भूवच्छसमानस्य यज्ञोः कथा शृणोति हूयमानमिन्द्रः कथा शृण्वन्नवासामस्य वेद का अस्य भूर्वीरुपमादयोः कथेन माहुप्पूरिञ्जरित्रे कथा समाधस्वमानो अस्य न सदभिद्रवीणम् दीध्यानः देवो भूवन्नवेदामृतानाम् रमोजगृभ्वा अभियज्जुजोषत् तथा गतस्य उषसोऽव्योष्टौ देवो मत्तस्य सख्यम् जुजोष तथा गतस्य सख्यम् सकृभ्योजे अस्मिन् कामम् सुयुजम् गतस्रे इमादमत्रम् सख्यम् सखिभ्यः कदानुजे भ्रात्रम् रब्रवाम श्रिये सुदृशोपुरस्य सर्गा स्वा अर्णचित्रतमविषागोः ृहन्दिघांसन्धरतामनिन्द्राम् वेदिक्ते दिग्मा द्विजसे अनीकात्र ऋणयान उग्रो दूरे अज्ञाता उषसोपबाधे ऋणस्य हि सुहृधः सन्ति पूर्वेर्वृतस्य धीतिर्वृजिनानि हन्ति ऋणस्य श्लोको बधिरात दर्दकर्णा बुधानः सृजमान आयोः ऋतस्य दृढा धरुणानि सन्ति पुरूणि चन्द्रावपूषे वपूंषि ऋतेन दीर्घमेषणन्तवृक्ष ऋतेन गाव ऋतमामीवेशुः ऋतन्ये मानऋतमिद्वानो ऋतस्य दृष्पस्तु रजावो गव्योः ऋताय पृथ्वी बहुरे गभीरे ऋताय धेनुपरमे दुहाते ोष्टुत इन्द्रनो गृहानयिषम् चरित्रे नद्यो ओनपीपेः अकारिते हरिवो ब्रह्मणव्यम् धिया स्यामरथ्यः सदासाः का सुष्टुतिः सवसः सोनमिन्द्रमर्वाचीरम् राधसावर्तते हरिर्हि वीरो गृणते वसू निसकोपदिर्निश्चिधाम् नो जना सह सवृत्रहत्ये हव्यः सयेभ्यः स सुष्ठु दयिन्द्रः सत्यराधाः स यामन्नामघवामत्याय ब्रह्मण्यते सुष्वयेवरीबोधात् तमिन्नरो विह्वयम् ते समीकेरीरिक्वांसस्तन्वः कृण्वतत्रा निशो यत्यागमुभयाः सो अग्मन्नरस्तोकस्य तनयस्य सातौ क्रतूयम् दीक्षितयो योग उग्रासुषानासो विशो अन्नसातौ संयद्विशो वृत्रन्त युध्माहादिन्नेम इन्द्रयन्ते अभीके आदिद्धनेम इन्द्रियम् जयजन्त आदित्पत्निः पूरोलासम् ऋचात् आदित्सोमो विपवृच्छादसुष्वेनादिज्जूजोषवृषभम् यजध्यै रोच्यस्मै वरी भोजयित्येन्द्राय सोममुसते सुनोति सद्धीतीनेन मनसा वीवे नन्द्रमित्सखायम् कृणुते समत्सु यजिन्द्राय सुनवत्सोम मद्यपदात्पत्तिरुतभृजादिधानाः प्रदीमनायो रुचथा निहर्यम् तस्मिन् दधगृहणम् सुष्ममिन्द्राः यदा स मर्यम् यचे दृघाः वा दीर्घम् यदाजिमभ्यख्य दर्यः अधिक्रदद्वृषणम् पद्यच्छादुरो नानिशीतम् सोमशुद्भिः भूयसा वस्त्रमचरत्कनीयो विक्रीयो अकानिशम् पुनर्यन् सभूज साकनीयो नारीरे चेद्दीना दक्षा विदुहन्ति प्रवाणम् जीवन्तसभिर्ममेन्द्रम् क्रीणाति धेनुभिः यजा वृत्राणि जङ्घनदधैरम् मे पुनर्दत् नो श्रुतयम् रणो क्रीणानैषम् चरित्रे नद्यो नीपेः हरिभो ब्रह्मणव्यम् स्याः मरच्छ सदासाः ओजो देवकाः मकुसन्निन्द्रस्य सख्यम् जोजोष ओ वा महेव सेपार्याय समिद्धे अग्नौ सुतमयीष्टे ओ नानामवच सा सोम्याजमनाजुर्वा भवति वस्तुस्राः कलिङ्गस्य युज्जङ्गस्य हित्रम् को भ्रात्रम् वष्टिकवलेकभूति को देवानामो अद्यापीणीते ज्योतिरीट्टे कस्याश्विनामिन्द्रो अग्निसुतस्याम् सोऽपिबन्ति मनसा विवेणम् तस्मा अग्निर्भारतशर्मजम् सञ्जोग्मस्यात् सूर्यमुच्चरन्तम् इन्द्राय सुमेत्याहनरेणर्याय नृतमाय नृणा न तञ्जीरन्ति बहवो नभ्रावुर्वस्मादितिः शर्मजम् सत् प्रियस्तु प्रिय इन्द्रे मनाय प्रियस्तु प्रावी प्रियोऽस्य सोमी सुप्राव्यप्राजुडारेण वीरसुष्मे पत्निम् कृणुते केवलेन्द्राः न सुष्मे रापिर्न सखा न जामिर्जुष्प्राव्यो वहन्ते दवाजः न रेवदा पणिना सख्यमिन्द्रो सुन्वदासु सपाः सङ्गृणीते आस्य वेदखिलदिहन्ति नग्नम् विसुष्मजे भद्रजे केवलोऽभूत् इन्द्रम् परेव रे मध्यमास इन्द्रम् जान्तोपासितास इन्द्रम् इन्द्रम् क्षियन्त बुधयुध्यमानानिन्द्रम् नरो वाजयन्तो भवन्ते अहम् मनोरभवम् सूर्यस्ताहम् कक्षीवान् ऋषिरश्मिप्राः अहम् गुत्समार्जुनेयम् जेहम् कविरुसनामस्य दामा अहम् भूमि मददामार्याः जाहम् वृष्टिम् दासु हेमत्याय अहमोहनयम् वापसाना मम देवासो अनुकेतमायन् अहम् पुरोमन्दसारो वीरम् नवसाकम् न भतिः संवारस्य सततमम् वेश्यम् सर्वदा दादिवो दासमतिचिग्वङ्गदामम् रजुनविभ्यो मनदो विरस्वप्रस्येनस्येनेभ्य आसुपत्वाः अचक्रजाय स्वधया सुपर्णो हव्यम् भरन्मनवे देवजुष्टम् भरद्य दिविरतो वेबीजानः पथोरुधामनोः जवासर्जि तूयम् ययौ मधुना सोम्येनोतस्रवोः विविदेश्येनो अत्र जीवीश्येनो ददमानो अंसुम् परावतश्च गुणो मन्त्रम् मदम् सोमम् भरद्दादृहाणो देवामान्दिवो अमुष्मादुत्तरा दादाय आदाय श्येनो अभरत् सोमम् सहस्रम् सवा अयुतम् च साकम् अत्रापुरम् धीरजहातरा धीर्मदे सोमस्य मूरामूरः गर्भेण सन्नन्वेणामवेदमहम् देवानाम् जनीमानि विश्वाः शरम् मापुराय शीररक्षन्नघस्येनो जवसा निरदीयम् न घातमामभजोषम् जभारा भीमा सत्पक्षदा वीर्येण ीर्मापुरन्धिरजहादरादीर्मादाङ्गदरच्छोऽशूमानः अभयच्छेनो अश्वनीदद्योर्वियज्ञदिवात भूः पुरन्धिम् सृजद्यदस्मा अवह क्षिपद्याम् कृशानुरस्तामनसा पुरण्यन् निजिप्य जीविन्द्रावतो न भुज्यम् श्येनो च भारबृहतो अधिष्णोः अनन्तः प्रदत्पदत्यश्च पन्नमधयामानि प्रसीदस्य लद्वेः अथ श्वेतम् कलसङ्गोभिरत्तमाभिज्ञानम् भगवाः शुक्रमन्धाः अधर्युभिः प्रजातम् मध्वो अग्रमिन्द्रोमदाय प्रतिधत्तिबध्यै रोमदाय प्रतिधत्तिबध्यै स्वायुजालभदत्सोपसख्यैन्द्रो अपोमनवे सश्रुतस्कः अहन्नहि वरीणाः सप्त सिन्धूनपाः वृणोदपीहि देवखानि स्वायुजानि श्रीधत्सूर्यस्येन्द्रश्चक्रम् सरासा सद्यम् अधिष्णुना बृहदा वर्तमानम् महो ध्रुवो अपविश्वायुधानि अहन्निन्द्रो अदहदग्निलिङ्गो पुरादस्योन्मध्यम् दीनादभीकेः दुर्गे दूरोणे क्रत्वा न जाता गुरुसहस्रा सर्वाणि बर्हीत् विश्वस्मात् सीमधमान्विशोदासीरकृणोरप्रशस्ताः अबाधे धाममेण तम् निशत्रो नविन्दे धामपधिम्भत्रैः एवा सत्यम् मघवानायुवन्तदिन्द्रश्च सोमोर्वमश्रयम्भोः आदर्द्रितमपि हि धान्यस्तारिषसुभोक्षाश्चित्तदृदाना आनस्तुतमुपवाजेभिरुचीन्द्रजादिहरिभिर्मन्दसानः चिरश्चिदर्यः सवना पुरोन्याम् गोषेभिर्गृणानः सत्यराधाः आयिष्मायाधिनर्यश्चिकित्वान् भूयमानः सोतृभिरुपयज्ञम् स्वयो अभीरुर्मण्यमानस्य श्वानेभिर्मदति सम्भवीरैः श्रावयेतस्य कर्णा वाजयद्यैष्टामलप्रदिशम् मन्दयद्यैः उद्वावृषानोराधसेतुविष्माङ्करम् न इन्द्रस्वतीर्थाभयम् च अच्छायोगन्तानाधमानभूतीथा विब्रह्मवमानम् गृणन्तम् आसून् सहस्राणि शतानि वज्रबाहुः भोदा सोमघवन्निन्द्रविप्राः वयम् देवे श्यामसूरयो गृणन्तः भेदानासो बृहद्दीपश्चरायः कार्यस्य धावनेः पुरुक्षोः न कीरेन्द्रत्वरो नज्रायाङ्गस्य वृत्रहन् न कीलेवायथात्मम् सन्त्राते अनुकृष्टयो विश्वाः चक्रेव वावृतुः सत्रा महाङ्गधिश्रुतः विश्वे जने धना त्वा देवास इन्द्रयुयुधुः यदहानक्रमादीरः यद्रोदपाधिकेभ्यश्चक्रम् कुत्सायुध्यते गुणायिन्द्रसूर्यम् यत्र देवाङ्गृधायतो विश्वाम् अयुध्यये कयित् त्वमिन्द्रवनूम् गृहन् यत्रोदमर्त्यायकमरीनाजिन्द्रसूर्यम् रामस्वचीभिरेतसम् किमादुरासी वृत्रहणन्महवन्मन्युमत्तमः अत्राहदानुमादीरः एतद्भेदुतवीर्या अमिन्द्र चकर्थपुंस्यम् स्त्रियम् यद्दुर्घनायुमम् वधेर्दुहितरम् दिवः दिवश्चिद्घादुहितरम् महानाहीयमानाम् पुरासमिन्द्रसम्पीनक् अपोषा अनसस्वरत्सम्पिष्टादः विद्युषी नियत्सीम् शिश्नधदृशाः एतदस्या अनस्वयेषु सम्पिष्टम् विपास्या सदारसीम् परामताः उदसिन्धम् विबाल्यम् विदस्थानामधिक्षमि वरिष्ठा इन्द्रमायया उत सृष्णस्य धृष्णुजा प्रवृक्षो अभिवेदनम् पुरो यदस्य सम्पिनक् उत दासम् कौलितरम् बृहदः पर्वतादधि अवाहन्निन्दसम्भरम् उत दासस्य वर्चिनः सहस्राणि शतावधीः अधिपञ्च प्रधीव उदत्यम् पुत्रमग्रुवः परावृत्तम् सदक्रतुः उक्थेष्विन् आभजत् उदत्या दुर्गसायतो अस्मादारासजीपतिः इन्द्रो विद्वान् अपारयत् उदत्या सद्यार्या सरयोरिन्द्रपारदाः अर्णा चित्ररथावधीः अरद्वाजहितानयोन्धम् श्रोणम् च वृत्रहन् न दत्तेः सुम्नमष्टवे शतमस्मन्मयीनाम् पुरामिन्द्रोऽव्यास्यत् दिवो दासाय दाशुषेः अश्वापयद्दभीताये सहस्रा त्रिंशतम् हतैः दासानामिन्द्रो मायया सखे दुदासे वृत्रहन् समान इन्द्रगोपतिः यस्ता विश्वा निचिच्युषे उत नूनम् यदिन्द्रियम् करिष्यायिन्द्रपौंस्यम् अज्ञानकृष्टदामीरत् वामम् वामन्त आदुरे देवो दधात्तर्यमा वामम् पूषा वामम् भगो वामम् देवः करूणति कजानश्चित्राभूवदूते सदा वृधः सखाः कजा सतिष्ठया मृता कस्त्वा सद्यो मदानामम् हृष्टो मत्सदन्धसः दृढादिदारुदेवसु अभीषु नः सखीनाम विदागरिणाम् सतम् भवास्यूतिभिः अभिनावृत्स्वचक्रन्न भक्तमर्वतः नियुद्भिश्चर्षणीनाम् प्रवदाहि कृतो नामाहापदेव गच्छसि अभक्षिसूर्ये स च संयत्त इन्द्रमन्यवस्त्रम् चक्राणि दधन्विरे अधत्वे अधसूर्ये उदस्माहि त्वा माहुरिन्मघवानम् सजीपते दाहारमपि दीर्घयम् उतस्मा सद्ययित्परीशसमानाय सुन्वते रुचिम् मम्भसेवसु नैष्माते सहनचनराधोवरम् त आमुराः न चौत्राणि करिष्यतः अस्मान्बन्धुते सतमस्मान् सहस्रभूतजाः अस्मान् विश्वाः अभिष्टायः अस्मान् इहावृणीष्टसख्याय स्वस्तयेः महोराजे दिवित्मते अस्मान् अभिद्धि विश्वहेन्द्रराजावरीणसा अस्मान् विश्वाभिरूतिभिः अस्मभ्यन्ताम् अपावृधि व्रजाङ्गस्ते भगोमतः भराभिरिन्द्रोजिभिः अस्माकम् दृष्ट्यारथोद्युमाम् इन्द्रानवच्युतः गभीरश्रयुरीयते अस्माकमुत्तमम् कृधिश्रवोः देवेषु सूर्य वर्षिष्ठम् जामी वोपरि आदून इन्द्रवृत्रहन्नस्माकमर्धमागहि महान्महीभिरूतिभिः भ्रमिश्चिद्भासिदूतु जलाचित्रचित्रिणीष्वा चित्रम् कृणोश्रूतयेः दभ्रेभिश्चिच्छीयाम् संहम् शिव्राधम् तमोजसा सखीभिर्ये त्वे सचाः भयमिन्द्रत्वे स च भयम् त्वाभिनो नमः अस्मानस्माङ्गिलव सरश्चित्राभिरद्रिवो न भज्याभिरूतिभिः अनाः दृष्टाभिरागहि भूयामोषुत्वाव तत्सखाः जयिन्द्रकोमदः युजो वाजा जगृष्वाय त्वम् ह्येकयीशीषयिन्द्रवाजस्य गोमातः सनो यन्धि महीविषम् नत्वावरन्ते अन्यथा यद्दित्सासि स्तुतो मघम् यगोरुभ्य इन्द्रगिर्वणः अभित्रागोतमा गिरानूषधप्रदापने इन्द्रवाजाय भीष्माय हृदये वोचामवीरा आजामन्दसान आरुजः पुरोदासीरभीत्य ताते गृह्णन्ति वेधसो जानी चकर्थपुंस्या सुतेष्विन्द्रगर्वणः अयीवृधम् तगोत मा इन्द्रत्वे स्तोमवाहसः अयिषूधा वीरवद्यसाः यच्छिद्दिशस्व तामसीन्द्रसाधारणस्त्वम् भजम् गावामहे अर्वाचीनो वसोभवास्मे सुमत्स्वान्धसः सोमानामिन्द्रसोमपाः अस्माकम् तामतीनामा सोम इन्द्रयच्छतु अर्वागावत्तया हरी पुरोलासम् च नोघसो जोषयाः से गिरश्च नः मधूयुरिवयोषणाम् सहस्रम् यदीनाम् युक्तानामिन्द्रामीमहे शतम् सोमस्य कार्याः सहस्रा ते सदा वयङ्गपामाच्चा वयामसि अस्मत्राराधयेतु ते दशते कलशानाम् हिरण्यानामधीमहि भूरिदासि वृत्रहन् भूरिदा भूरि देहि नो मादभ्रम् भूर्याभर भूरिहेजिन्द्रजित्ससि भूरिराह्यसि श्रुतः पूरुत्रासूरवृत्रहन् आनो भयस्वराधसि पते भद्रो वेदक्षणसंसामि घोषणो न पात् माभ्याङ्गानुशिश्रतः कनीनकेव विद्रधे न वे द्रुपदे अद्भये बभ्रूयामेषु शोभेते अरम्मभुस्रजाम्ये रमनुस्रजाम्ये बभ्रूयामे श्वसृधा भद्रम् नो अपि वातयमगाः ओ हरिः ओ प्रभुभ्यो दूतमिव वाचमिष्य उपस्थिरे स्वैतरीम् धेनुमीरे ये वाचदूतास्तरणिभिरेभैः परिद्याम् सद्यो अपसो बभूवः यदा रमक्रम् गृभवः पितृभ्याम् परिवृष्टिवेषणाः दंसनाभिः आदिदेवानामुपसख्यमाजम्भीरा स पुष्टिमवहन्मनायैः पुनर्ये चक्रुः पितरायुवा नासनायुपे वजरनाशयाना देवाजो विभ्वाङ्गृभुरिन्द्रवन्तो मधुत्सरसो नो वन्तु यज्ञम् यत्संवत्स मृभवो कामरक्षम् यत्संवत्स मृभवो मा अभिंसन् यत्संवत्समभरन्भासो अस्यास्ताभिस्तमीभिरमृतत्वमासुः ज्येष्ठाः चमसाद्वाकले धिगणीयान्द्रेन्द्रेण वामेत्याः अनिष्ठाः चतुरस्करे धित्वष्टभवस्तत्त्वान यद्वचो वः सत्यमो जन्नर येवाहि चक्रुरनुस्वधा मृभवो जग्मुवेताम् विभ्राजमानाम् समसाङ्गहेवामेण त्वष्टा चतुरो ददृश्वान् द्वादसद्योन्यदगोह्यस्यादिच्छेरणम् प्रभवः ससन्ताः सुक्षेत्रा गृह्णन्ननायम् तसिन्धोन्धन्वा तिष्ठन्नोषधीर्निम्नमापाः रथम् ये चक्रुः सुहृतम् रथेष्टाम् विश्वयुः ध्रुवम् विश्वरूपाम् तदा दक्षन् ऋभवो रयिन्नस्वसस्वसस्वहस्ताः अभोत्येषामजूषन्तदेवाभिकृत्वामनसादीध्यानाः वाजो देवानाम् प्रभवत्सुकर्मेन्द्रश्चर्भुक्षावरुणः सविद्वाः ये हरिवेदयोक्तावदम् दयिन्द्राय चक्रस्वयुजाये अस्वा ते राजस्पोषम् द्रवीणान्यस्मे धत्तविभवः क्षेमयन्तो न मित्राम् इदान्नः पीतिमुदवोमदम् धर्महृते श्रान्तस्य सख्याय देवाः ते नूनमस्मेर्भवो वसूनि तृतीये अस्मिन् सवने दधात ऋभर्विभावादिन्द्रो नोमच्छेमयज्ञम् रत्नधेयोपजात इदाहिवोधिषणा देव्यन्नामधात्पीतिम् संमदा अग्मदावः इदारासो जन्म नो वाजरत्ना उदरदुभिर्भवो मादयध्वम् सम्भोमधा अग्मदसम्परम् धिस्वीरामस्मे रजिमेरायध्वम् अयम् वो यज्ञर्भवो कार्यमामनुष्वत्प्रतिवो दधिद्वे प्रवोच्छाजुजुषाणासो अस्तुरभूत विश्वे अग्र्योतवाजाः अभूदवो विधते रत्नदेयमिदानरोधासुषे मत्याय विभवो दधे भो महि तृतीयम् समनम् वदाय आवाजातोपनर्भुक्षामहो न रोद्रवीण सो गृणाः आवः पीतयोऽभिभित्ते अह्नामिमाहस्तम् नभस्वरिवग्मन् आनपादस्तवसो जातनोपेयम् यज्ञम् नमसा हूयमानाः सजोषसूरयो यस्य चस्तमध्वः पादरत्नधा इन्द्रवन्तः सजोषा इन्द्रवरुणेन सोमम् सजोषाः पाहि गर्वणो मरुद्भिः अग्रेपाभिर्मृतुपाभिः सजोषाग्नास्पत्नीभिरत्नदाभिः सजोषाः सजोषासादित्यैर्मादयध्वम् सजोषा सर्वभः पर्वतेभिः सजोषसो दैव्येनासवित्रा सजोषसिन्धुभिरत्नदेभिः ये अश्विनादेभिरराजभूतीयेनम् दक्षर्भवो ये अश्वा ये अंसत्राजर्धग्नोदशीले विद्भो नरस्वपत्यानि चक्रुः ये गोमङ्गम् वाजमङ्गम् सुवीरम् रयिम् धत्तवसुमन्तम् पुरुक्षम् ते अग्रे पार्भवो मन्दसानास्मे धत्तये च रातिम् गृह्णन्ति नापाभूदनवो दीदृशामाणिः स्वस्तार्भवो यज्ञे अस्मिन् समिन्द्रेणमदधसम् मरुद्भिः सम्राजभिरत्नधेयाय देवाः